इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चंद शर्मा अथ वार्ताः प्रधानमंत्री श्री नरेन्द्र मोदी अद्य उत्तर प्रदेशस्य मध्य प्रदेशस्य च भ्रमणं करिष्यति सः उत्तर प्रदेशस्य वाराणसी नगरे 3000 कोटि रूप्यकाणां विविध विकास परियोजनानां शिलान्यासं उद्घाटनं च विधास्यति एतासु परियोजनासु वाराणसी नगरे अवसंरचना विकासः मार्ग संपर्कः अन्तर्भवति सर्वेभ्यः शिक्षां सुनिश्चेतुं स्वस्य दूरदृष्टिम् अनुसृत्य प्रधानमंत्री अस्मिन् प्रदेशे सर्वकारीय पॉलिटेक्निक महाविद्यालयं ग्रामीण पुस्तकालयानि आंगनवाड़ी केन्द्राणि इत्यादीनां परियोजनानां उद्घाटनमपि विधास्यति सः स्मार्ट सिटी मिशन इत्यस्य अन्तर्गतस्य 77 प्राथमिक विद्यालय भवनानां नवीनकरणस्य वाराणसी नगरस्य चोलापुरे कस्तूरबा गांधी विद्यालयस्य नूतन भवनस्य निर्माणस्य च शिलान्यासं करिष्यति प्रधानमंत्री श्री नरेन्द्र मोदी प्रथमं वर्षेभ्यः अधिकानां वरिष्ठ नागरिकाणां कृते आयुष्मान वेवंदना पत्राणि अपि समर्पयिष्यति सः तबला चित्रकला तण्डै तिरंगा बर्फी इत्यादिभ्यः विविध स्थानीय वस्तूनां उत्पादानां च कृते भौगोलिक संकेत प्रमाणपत्रं प्रदास्यति सः बनास डेरी इत्यनेन सह सम्बद्धानां उत्तर प्रदेशस्य दुग्ध आपूर्तिकर्तृभ्यः 5.1 कोटि रूप्यकाणां बोनस अपि प्रेषयिष्यति पश्चात् दिने श्रीमोदी मध्यप्रदेशं गत्वा इसागाड़ नगरस्य गुरुजी महाराज मंदिरे दर्शनं पूजां च विधास्यति सः आनंदपुर धामे सार्वजनिक कार्यक्रमे अपि भागं गृहीष्यति प्रधानमंत्री नरेन्द्र मोदी उत्तर प्रदेशस्य वाराणसी नगरे 3088.8 कोटि रूप्यकाणां विविध परियोजनानां शिलान्यासं उद्घाटनं चापि विधास्यति राष्ट्रीय अन्वेषण संस्थया नवंबर मासस्य 11 दिनांगे मुंबई भयोत्पादक आक्रमणस्य प्रमुखं षड्यंत्रकारं तहव्वुर हुसैन राणा इत्येनम् अमेरिका देशात् तस्य सफलतया प्रत्यर्पणेन गतसायं नवदेहली नगरम् आगत्य तत्क्षणमेव औपचारिक रूपेण गृहीतः राणा लॉस एंजलिस नगरात् विशेष विमानेन NSG तथा NI इत्येतयोः वरिष्ठाधिकारिभिः युक्तैः दलैः नवदेहली नगरं प्रति अनुरक्षितः आसीत् NIA अन्वेषणदलं सर्वान् आवश्यकान् विविधान् पूरयित्वा विमानात् बहिः आगत्य शीघ्रमेव मुख्यतया शिकागो नगरे निवसतः पाकिस्तानी मूलस्य कनाडादेशस्य नागरिकाणाम् इत्यनेन गृहीतवती सः चिकित्सा परीक्षायै नीतः गतरात्रौ पटियाला हौस न्यायालये विशेष NA न्यायाधीशेन समक्षम् उपस्थापितः यस्मिन् समये NA तस्य 20 दिवसस्य अभिरक्षां याचितवान् अन्ते च क्रीडावार्तासु IPL इत्येतस्यां क्रीडाप्रतिस्पर्धायां गतरात्रौ क्रीडिते द्वन्द्वे देहली कैपिटल्स इत्येतेन दलेन रॉयल चैलेंजर्स बेंगलोर इति दलं पराजितम् IPL इति प्रतिस्पर्धायाम् अद्य चेन्नई सुपर किंग्स तथा कोलकाता नाइट राइडर्स इत्येतयोः दलयोः मध्ये क्रीडा भविष्यति इति वार्ताः